एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सूचना संचार मन्त्री डाक्टर विक्रम तिमिलसेना निगदति सर्वकारः अभिव्यक्ति स्वतन्त्रतायाः पूर्ण संचार स्वतन्त्रतायाः सपक्षे वर्तते प्रतिनिधिसभायाः स्तनोपवेशे विनियोजन विधेयकस्य विभिन्नानि शीर्षकाणि आधृत्य विहितस्य विमर्शनस्य क्रमे सांसदैः उत्थापितान् प्रश्नानुत्तरयन् संचार मन्त्री डा तिमिलसिन्हा संचार स्वतन्त्रतायाः उपरि हस्तक्षेपस्य कथं विधाः अपि क्रियाकलापाः सर्वकाराय सोढव्याः न भवन्ति इति उदयरयत् उपवेशे मन्त्री डा तिमिलसिन्हा संचार क्षेत्रं दायित्ववाही मर्यादितम् उत्तरदायी विश्वसनीयञ्च विधातुं नीतिगत विधिगत सुधाराय अधिनियमानां विदेश समसामयिक संशोधनाय नूतन विधेर निर्माणार्थं सर्वकारेण कार्यं प्रारब्धमस्तीति असूचयत् तदवसरे मन्त्री डा तिमिलसिन्हा आराष्ट्रं दूरसंचार सेवायाः गुणस्तरस्य विस्ताराय अतिरिक्तानां सहस्रस्य षण्णां शतानां च नूतन दूरभाषणोपकरण संयोजन केन्द्राणां निर्माणस्य प्रक्रिया अग्रेसारिता अस्तीति अज्ञापयत् उपवेशे युवश्रम वृत्ति उपार्जन मन्त्री रामजी यादवः सांसदानां प्रश्नानुत्तरयन् स्तरत्रयस्य सर्वकाराणां सहकारेण स्वदेशे एव वृत्ति उपार्जनस्य अवसराणां सर्जनाय सर्वकारः क्रियाशीलोऽस्तीति उदयरयत् उपवेशे उद्योग वाणिज्य आपूर्ति मन्त्री गौरी कुमारी पेट्रोलियम पदार्थानां भण्डारणं मासत्रयस्य यासनाय पर्याप्तं विधातुं सामर्थ्य विस्तारस्य लक्ष्यानुसारेण कार्यं जायमानमस्तीति असूचयत् मन्त्री गौरी कुमारी सांसदानां प्रश्नानुत्तरयन्ती रुग्णोद्योगानां पुनः प्रभावकारिणः संचालनस्य उपक्रमे प्रथमं हेटौडा वस्त्रोद्योगः संचालयिष्यते एतदर्थं बचुअल तन्तोद्योगस्य संचालनस्य कार्यं कर्पास कृषेः कार्यञ्च सहैव अग्रे प्राथमिकतायां संस्थाप्य अस्मादेव वर्षात् करिष्यते इति असूचयत् उपवेशे कृषि वन पर्यावरण मन्त्री गीता चौधरी सांसदानां प्रश्नानुत्तरयन्ती मन्त्रालयस्य आयव्ययिक विवरणस्य वित्तं रासायनिक मलस्य आपूर्तौ कृष्याम् इक्षुक कृषकेभ्य प्रदीयमाने अनुदाने प्रोत्साहन प्रदानत्वेन विनियुक्तमस्तीति अज्ञापयत् उत्तर प्रदानस्य क्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री खड्गराज पौडेलः समाजस्य अवरस्तरस्य वर्गैरपि पर्यटनस्य लाभ ग्रहणत्वेन विनियोजन विधेयकेन बलं प्रदत्तमस्तीति उदयरयत् उपवेशे मन्त्री पौडेलः संस्कृति सम्बद्धां राष्ट्रिय नीतिं निर्मातुं कार्यं प्रारब्धमस्तीति च असूचयत् उपवेशे सांसदानां प्रश्नानुत्तरयन्ती स्वास्थ्य खाद्य सुरक्षा मन्त्री निशा मेहता औषधानां सहजापूर्तये मूल्य समायोजने स्वचालित प्रणालीं निर्मातुं च एक सप्ताहस्य अभ्यन्तरे प्रक्रिया अग्रे वर्धमाना अस्ति इति अवोचत् विनियोजन विधेयकस्य विमर्शनस्य क्रमे सांसदैः उत्थापितान् प्रश्नानुत्तरयन्ती भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्री प्रतिभा रावलः भूम्यावासहीनत्वेन प्रमाणितेभ्य जनेभ्य अस्यैव आषाढ मासस्य तृतीय सप्ताहात् भूमि भूस्वामित्व प्रमाणपत्रस्य वितरणं प्रारप्स्यते इति अगदत् उपवेशे महिला बाल बालिका लैंगिक अल्पसंख्यक सामाजिक सुरक्षा मन्त्री सीता वादी च स्वास्थ्य मन्त्रालय सम्बद्धान् प्रश्नान् उदतरत् प्रतिनिधिसभायाः अपर उपवेश अद्य पूर्वाह्नस्य एकादशवादने पुनर्वसति शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः निगदति विश्वविद्यालय शिक्षां समय सापेक्षां प्रविधि मैत्रिणीं वृत्त्युपार्जने उतां च विधातुं सर्वकारेण प्राथमिकतापूर्वकं कार्यं विधीयमानमस्ति मध्यपश्चिम विश्वविद्यालयस्य दीक्षान्त समारोहं पूर्वे द्युः सम्बोधयन् शिक्षामन्त्री पोखरेलः उच्चशिक्षां समापनैस्सह योजयितुं पाठ्यक्रमस्य परिमार्जनं विधास्यते यस्य कृते आवश्यकस्य वित्तस्य पूर्वाधारस्य जनशक्तीनां च व्यवस्थापनं विधातुं सर्वकारः प्रतिबद्धोऽस्तीति प्रावोचत् समारोहे मन्त्री पोखरेलः कर्णाली प्रदेशस्य प्राकृतिक सांस्कृतिक स्रोतसाम् अध्ययनाय अनुसन्धानाय च सर्वकारेण प्राथमिकता दीयते इति अगदत् सभामुखेन डोलप्रसाद अर्यालेन सह बंगलादेशस्य राजदूतेन मोहम्मद शफिकुर रहमान इत्यनेन ह्य शिष्टाचार मेलवार्ता विहिता अस्ति सभामुखेन अर्यालेन नेपाल बंगलादेशयोः सम्बन्ध सार्वभौमिकीं समानतां पारस्परिकं सम्मानं विश्वासं चाधृत्य प्रवर्धते इति चर्चयता नेपालेन बंगलादेशेन सह विद्यमानाय सम्बन्धाय अधिकं महत्वं प्रदीयते इति उक्तमस्ति। सभामुखेन अर्यालेन बंगलादेशे नवसंघटितं सर्वकारं प्रति शुभकामनाम् अभिव्यज्य जनानां सेवायै देशस्य प्रगत्यै समृद्धये च शुभकामना प्रदत्तास्ति। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन सह नेपालस्य कृते रूसी महासंघस्य आवासीय राजदूतेन एलेक्सी भ्लादिमिरोविच सुरोवत्सेव इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। उपराष्ट्रपतेः कार्यालये ह्यः सम्भूते मेलने अनयोर्मध्ये नेपाल रूस देशयोर्मध्ये द्विपक्षीयस्य सम्बन्धस्य विविधेष् पक्षेष् सौहार्दपूर्ण संवाद सम्भूतोऽस्तीति उपराष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। तदवसरे उपराष्ट्रपतिः यादवः द्वयोः देशयोः कूटनीतिक सम्बन्ध स्थापनायाः सप्तति वर्षाणि प्रपूर्यमाणानि सन्तीति चर्चयन् पारस्परिक सम्मानस्य संविदायाः मित्रतायाश्च सम्बन्धं नेपालेन सगौरवं स्मर्यते इत्युक्तवान्। तदवसरे राजदूतः सुरोवत्सेवः नेपाल रूस सम्बन्धम् अधिकं सुदृढं विधातुं नैरन्तर्येण सहयोगो प्रदास्यते इति प्रतिबद्धताम् अभिव्यनक्। वाग्मती लुम्बिनी सुदूर पश्चिम प्रदेश सभानां विशेषाधिकार समितिनां सभापतीनां सदस्यानां च प्रथमं राष्ट्रिय सम्मेलनं सप्तसूत्रात्मकम् एतद् विक्रमवर्षीयं लुम्बिनी घोषणापत्रं प्रकाश्य ह्य सम्पन्नमस्ति। सम्मेलनेन विशेषाधिकार समितिष् अनुभवादान प्रदानं सम्बन्धं सहकार्यंश्च संस्थागतं विधातुम् एक समन्वय समितेः स्थापनां विधातुं घोषणा विहिता वर्तते। सूचना संचार मन्त्रालयेन सार्वजनिक सेवा प्रसारण संस्थया नेपाल टेलिभिजनेन विभिन्नेष् समयेष् कृतानाम् उपकरणानां क्रयणस्य विषयाणाम् अध्ययनम् अनुसन्धानं च कर्तुं चतुस्सदस्यात्मिका समितिः संघटिता अस्ति। मन्त्रिस्तरीयेन निर्णयेन डा सुदीप भट्टराई इत्यस्य संयोजकत्वे संघटितायै समित्यै नेपाल टेलिभिजनेन कृतानाम् उपकरणानां क्रयण प्रक्रियायाः विषय अनुसन्धानं विधाय एकविंश दिवसानाम् अभ्यन्तरे सपरामर्शं प्रतिवेदनं मन्त्रालये प्रस्तुतुं कार्यादेशः प्रदत्तो वर्तते।